एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। एतत् विक्रमवर्षीये प्रतिनिधिसभायाः निर्वाचने निर्वाचितेन ज्येष्ठ सदस्येन अर्जुन नरसिंह केसी इत्यनेन पदगोपनीयतयोः शपथ गृहीतोऽस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते समारोहे राष्ट्रपति रामचन्द्र पौडेलः ज्येष्ठ सदस्यम् अर्जुन नरसिंह केसी इत्यमम् प्रतिनिधिसभा सदस्यस्य पदगोपनीयतायो शपथम् अग्राहयत्। केसी नेपाली कांग्रेस दलस्य पक्षता समानुपातिक निर्वाचन प्रणालीतः निर्वाचितः सांसदोऽस्ति। केसी अद्य दिवा द्विवादने प्रतिनिधिसभायां निर्वाचितान् चतुस्सप्तत्युत्तरद्विशत संख्यातान् सांसदान् पदगोपनीयतयोः शपथम् ग्राहयति। शपथस्य कृते सर्वाणि पूर्वकार्याणि प्रपूरितानि सन्तीति संघीय संसद सचिवालयेन ज्ञापितं वर्तते। प्रतिनिधिसभायाः ज्येष्ठ सदस्येन केसी इत्यनेन सिंहप्रासादवर्तिनी संघीय संसद सचिवालये ह्य कार्यभार गृहीतोऽस्ति। गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य अनन्तरं नवीन सभामुखस्य निर्वाचनं यावत् केसी इत्यनेन ज्येष्ठ सदस्यत्वेन संसदः उपवेशस्य अध्यक्षता विधास्यते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति निर्वाचनस्य माध्यमेन जनतया प्रकटितेन अभिमतेन जनप्रतिनिधीनां समक्षं बृहद्दायित्वं समागतमस्ति। निर्वाचनायोगेन ह्य आयोगे आयोजितं जलपान कार्यक्रमं सम्बोधयन् राष्ट्रपतिः पौडेलः स्वतन्त्रतायाः सामाजिक न्यायस्य सुशासनस्य विकासस्य देशस्य समृद्धेश्च कृते सर्वैः एकीभूय कार्यं विधातव्यमिति प्रावोचत्। तदवसरे राष्ट्रपतिः पौडेलः संघीय लोकतान्त्रिक गणतन्त्रेण लक्षितं जनानां स्तरम् उत्थाप्य देशं समृद्धं विधातुम् एकीभूय अग्रेवर्धनाय बलं प्रादात्। राष्ट्रपति पौडेलः आयोगेन अस्मिन् निर्वाचने मतदातृणां सहभागितां वर्धयितुं मितव्ययितां पारदर्शितां च संस्थापयितुं आचार संहितायाः पूर्णरूपेण क्रियान्वयनं कर्तुं च उल्लेखनीय रूपेण कार्यं विहितमिति प्रावोचत्। तदवसरे प्रधानमन्त्री सुशीला कार्की आराष्ट्रं कुत्रापि मतदान केन्द्रेषु पुनर्मतदानस्य अकरणत्वेन शान्तिपूर्णरूपेण निर्वाचनस्य सम्पादनस्य उदाहरणम् आगामि निर्वाचनानां कृतेऽपि निदर्शनं सम्भूतमस्तीति प्रावोचत्। तदवदौ प्रधानमन्त्री कार्की एतद्वारं लोकतान्त्रिक मूल्यमान्यतां सुदृढां विधातुं जनतया स्पष्ट जनादेश प्रदत्तोऽस्तीति प्रत्यपादयत्। कार्यक्रमे कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी विभिन्न जटिलतानां व्यवधानस्य च विद्यमानतायां सत्यमपि निर्वाचन आयोगेन पूर्वनिर्धारित समय एव स्वच्छरूपेण निष्पक्षरूपेण च निर्वाचनं सम्पादितम् इति अगदत्। कार्यक्रमे आयोगस्य प्रवक्ता सहसचिवः नारायण प्रसाद भट्टराई च विचारं व्यक्तवान् आसीत्। समारोहे राष्ट्रपतिना सह उपराष्ट्रपतेः रामसाहेब प्रसाद यादवस्य प्रधानमन्त्रिणः कार्किणः प्रधानन्यायाधीशस्य प्रकाशमान सिंह रावत इत्यस्य प्रतिनिधिसभायाः ज्येष्ठ सदस्यस्य अर्जुन नरसिंह केसी इत्यस्य राष्ट्रियसभायाः अध्यक्षस्य नारायण प्रसाद दाहालस्य मन्त्रिगणस्य सांविधानिक निकायानां प्रमुखाणां कूटनीतिक नियोगानां प्रमुखाणां प्रतिनिधीनां च उपस्थितिः आसीत्। प्रधानमन्त्रिणा सुशीला कार्किणा महत्वपूर्ण प्रतिवेदनत्रयं सार्वजनिकर्तुं निर्णीतं वर्तते। प्रधानमन्त्रिणा कार्किणा गत भाद्रस्य त्रयोविंश चतुर्विंश दिवसयो घटनायाः अनुसन्धानायोगस्य नेपाल बाल संघटनस्य अथ च सप्तसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य बाल मन्दिर सम्बद्धोच्च स्तरीयानुसन्धानायोगस्य प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन निर्मितम् एतद् विक्रमवर्षीयं सुशासन मार्गचित्रं च सार्वजनिकर्तुं पूर्वेद्युः निर्णीतमस्तीति प्रधानमन्त्रिणः संचार परामर्शदाता रामबहादुर रावलः असूचयत। प्रधानमन्त्रिणा कार्किणा गत भाद्रस्य त्रयोविंश चतुर्विंश दिवसयोः घटनायाः सन्दर्भे अनुसन्धानायोगेन अर्पितं प्रतिवेदनं संघीय संसद सचिवालयस्य पुस्तकालये अभिलेखरूपेण संस्थाप्य सार्वजनिकर्तुं निर्णीतं वर्तते। संयुक्त राज्य अमेरिका देशस्य दक्षिण मध्य एशिया क्षेत्र सम्बद्धेन अमेरिका देशीय विशेष दूतेन सर्जियो गोरित्यनेन राष्ट्रपादलस्य सभापतये रवि लामी छाने विधाय वर्धापनं प्रदत्तं वर्तते। विशेष दूतेन गोरित्यनेन ह्यो दूरभाषं कृत्वा निर्वाचने प्राप्ताया सफलताया कृते वर्धापनं व्यक्तमस्तीति नेपालस्थितेन अमेरिका देशीय दूतावासेन ज्ञापितं वर्तते। दूरभाषस्य क्रमे विशेष दूत गोर नेपालस्य नूतन सर्वकारेण सह सहकार्यं कृत्वा आर्थिक सुदृढीकरणं कर्तुं देशद्वयस्य मित्रताम् अतिरिक्तां सुदृढां विधातुं च अमेरिका देशः उत्सुकोऽस्तीति अवोचत। सुर्खेत जनपदस्य षोडश वर्षीयाया इनिसा बिक इत्यस्य बलात्कारस्य हत्यायाश्च घटनाया अनुसन्धान प्रतिवेदनं पूर्वेद्यु जनपद प्रहरी कार्यालयेन सर्वकारीयाधिवक्तृ कार्यालयाय अर्पितं वर्तते। इनिसा इत्यस्याः मृत्यु सामयिक बलात्कारस्य अपेक्षया मुख्याभियुक्तेन सह शारीरिक सम्पर्कस्य क्रमे सम्भूतस्य गभीराहतस्य ततः सम्भूतस्य रक्तस्रावस्य च कारणेन सम्भूतोस्तीति निष्कर्षेण सहितं अनुसन्धान प्रतिवेदनं ह्य सर्वकारीयाधिवक्तृ कार्यालये अर्पितमस्तीति सुर्खेत जनपद प्रहरी प्रमुख प्रहरी परीक्षक सुधीर राज साई असूचयत। अद्य चैते दशैं नाम्ना प्रथितं चैत्राष्टमी पर्व दुर्गा भवान्याः पूजाराधन पुरस्सरं समायोज्यमानं वर्तते। एतदवसरे राजधान्याम् अन्यत्र च विद्यमानेषु विभिन्नेषु शक्तिपीठेषु मन्दिरेषु च शक्तिस्वरूपायाः भगवत्याः दर्शन पूजनार्थम् अद्य प्रत्युषादेव भक्तजनानां सम्वर्धो दृष्टिपथम् अवतरति। वर्षे वारद्वयं चैत्रमासे आश्विन मासे च विधीयमानायाः दुर्गापूजायाः विशेष महत्वं शास्त्रेषु वर्णितं वर्तते। शक्तिस्वरूपायाः भगवत्याः समाराधनेन सर्वविधात् संकटात् पारं प्राप्तुं शक्यते इति सप्तशती देवी भागवत कालिका पुराणादिषु लिखितं वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं सर्वोच्च न्यायालयस्य न्यायपरिषदः न्यायसेवायोगस्य च गतार्थिकवर्षीयं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे राष्ट्रपते पौडेलस्य समक्षं सर्वोच्च न्यायालयस्य प्रधान न्यायाधीश प्रकाश मानसिंह रावत प्रतिवेदनमिदं आर्पयत। नेपाली कांग्रेस दलेन दलस्य पञ्चदश महाधिवेशनस्य कार्यतालिका सार्वजनिकृता वर्तते। ह्य उपविष्टेन केन्द्रीय कार्यसमिते उपवेशेन आगामिनः आश्विन मासस्य षोडश दिवसात् एकोनविंशं दिवसं यावत् केन्द्रीय महाधिवेशनं विधातुं विहितस्य निर्णयस्य अनुसारेण कार्यतालिका सार्वजनिकृता अस्ति।